एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली नेपाल बाल संघटनस्य आराष्ट्रम विद्यमानानां सम्पदां पूर्णरूपेण संरक्षणाय उपयोगाय च निर्दिशति। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य संघटनस्य पदाधिकारिभिस्सह सम्भूते विमर्शने प्रधानमन्त्री ओली यावन्ति भवनानि भूमयः सम्पदश्च वर्तन्ते तेषां पूर्णतया सुरक्षायै आवश्यकतायां सत्यां कठोराणि कार्याणि विधातुं च निरदिशत्। प्रधानमन्त्री ओली संघटनस्य नवीन विधानस्य स्वीकृत्यै मन्त्री परिषदि प्रस्ताव आनेतुं संघटनस्य दायित्वे विद्यमानाभ्य बालबालिकाभ्य सन्तुलितम् आहारं वस्त्राणि स्नेहं च प्रदातुं गुणस्तरीयां शिक्षां दातुं च अनुरुणत्। प्रधानमन्त्री केपी शर्मा ओली विजयादशमी यमपञ्चक प्रभृतीनां महत्वपूर्णानां पर्वोत्सवानाम् अवसरे खाद्यवस्तूनां सहजतया आपूर्त्यै उद्योग वाणिज्यापूर्ति मन्त्रालयं सम्बद्धान् निकायाश्च निर्देशति। उद्योग वाणिज्यापूर्ति मन्त्रालयेन सह सम्बद्धेष् विषयेष् सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये यो विहिते विमर्शने प्रधानमन्त्री ओली खाद्यवस्तूनां कृत्रिमाभावस्य सर्जनहि मानवतायाः व्यावसायिकतायाः च अपेक्षया लाभमात्रं पश्यद्भि जनैश्च सह संविधान न कर्तुं निरदिशत्। सर्वकारेण विभिन्न दातृनिकायेभ्य विभिन्न देशेभ्यश्च प्राप्यमाणं पञ्चाब्जानां त्रयोदश कोटीनां त्रयश्चत्वारिंशत् लक्ष्याणां च अनुदान सहयोग वित्तं स्वीकर्तुं निर्णीतं वर्तते। संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ गत बृहस्पतिवासरस्य मन्त्री परिषद उपवेशेन एतावन् मात्रस्य अनुदान सहयोग वित्तं स्वीकर्तुं निर्णीतमस्तीति असूचयत्। तत्र बहुक्षेत्रीय पोषण योजना सहायता कार्यक्रमस्य तृतीय चरणस्य क्रियान्वयनाय यूरोपीय संघात् प्राप्यमाणं 23 मिलियन यूरो अथ च संयुक्त राष्ट्र बालकोषात् प्राप्यमाणं 2 मिलियन यूरो चेति कृत्वा 25 मिलियन यूरो मुद्राणाम् अर्थात् अब्जत्रयस्य 67 कोटीनां 64 लक्ष्याणां च रूप्यकाणां सहयोग वित्तं स्वीकर्तुं निर्णीतम् वर्तते। तथैव सर्वकारेण जर्मनी सर्वकारात् ऊर्जसह सुदृढीकरणस्य कार्यक्रमस्य क्रियान्वयनाय प्राप्यमाणं 10 मिलियन यूरो मुद्राणाम् आसन्नैकाब्जस्य 44 कोटीनाञ्च अनुदान सहयोग वित्तञ्च स्वीकर्तुं निर्णीतं वर्तते। प्रतिनिधिसभायाः अन्तर्गतायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः स्तनोपवेशेन 77-2000 विक्रमवर्षीयं सार्वजनिक सेवा प्रसारण विधेयकं पारितीकृतं वर्तते। प्रकरणगत विमर्शनं विधाय समितौ प्रस्तोतुं सांसदस्य छविलाल विश्वकर्मणः संयोजकत्वे संघटितया उपसमित्या समितेः समक्षं प्रस्तुतं प्रतिवेदनं विमृश्य ह्य समित्या विधेयकमेतत् पारितीकृतं वर्तते। राष्ट्रियसभायाम् उत्पन्नं रेडियो नेपालस्य नेपाल टेलिभिजन संस्थानस्य च समायोजनाय निर्मितं सार्वजनिक सेवा प्रसारण सम्बद्धं विधेयकं प्रतिनिधिसभया प्रकरणगत विमर्शनाय समितौ प्रेषितमासीत्। विधेयके प्रचयन परामर्श समितेः संयोजकपदे लोकसेवा आयोगस्य अध्यक्षस्य सदस्यस्य वा विद्यमानतायाः प्रस्तावे बहुमतेन सहमतिः धृता अस्ति। तत्पूर्वं विधेयकस्य विमर्शनस्य क्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ सर्वकारीय संचार माध्यमान् प्रतिस्पर्धिनः सक्षमांश विधातुं सार्वजनिक प्रतिस्पर्धया नेतृत्वस्य चयनाय बलप्रदानम् उपयुक्तं भवतीति धारणां व्यक्तवान्। मन्त्री गुरूङ व्यक्तौ केन्द्रीय भवनस्य अपेक्षया प्रतिस्पर्धात्मक विधेय अवलम्बनाय संस्थायाः आत्मनिर्भर सम्पादनाय च बलं देयम् इति प्रावोचत्। समित्या पारितीकृतं विधेयकमेतत् प्रतिनिधिसभायाः श्वस्तनोपवेशे प्रस्तोष्यते। अद्य आराष्ट्रं कुशी औंसीति नाम्ना प्रसिद्धं भाद्रकृष्णामवस्या पर्व समायोज्यमानं वर्तते। अस्य पर्वण अवसरे अद्य हिन्दुधर्मावलम्बिनः वर्षावधये देव पितृकार्ययुः कृते प्रयोज्यमानस्य कुशस्य संचयं विदधति। अदेव पितृदेवो भव इति वैदिकमान्यताम् अनुसरन्तु हिन्दवः स्वकीयेभ्य पितृभ्य मिष्ठान्न भोजनादि प्रदान पुरस्सरं मुखावलोकनं च विधाय तान् यथोचितं सम्मानयन्ति। अवसरेऽस्मिन् मातृपितृविहीनः सन्ततयः पितॄणां तृप्तिकल्याणयोः कामनया काष्ठमण्डपस्य उत्तरकोणे विद्यमानं गोकर्णेश्वरस्य मन्दिरं गत्वा श्राद्ध पद्धति अनुसारेण स्वकीयान् पितृन् उद्दिश्य तर्पयन्ति। अद्यैव नेपालस्य राष्ट्रविभूतेः मोतीराम भट्टस्य एकोनषष्ट्युत्तरैकशततमी जन्मजयन्ती आराष्ट्रं विविधै साहित्यिक कार्यक्रमै सह समायोज्यमाना वर्तते। युवकवि मोतीराम भट्टः माध्यमिक कालिक नेपाली साहित्यस्य शृंगारीय काव्यधारायाश्च प्रवर्तकः आसीत्। अनेन नेपाली साहित्यस्य श्रीवृद्धौ विविध काव्य गजल नाटकानि विरचय्य भानुभक्तीय रामायणं सम्पाद्य च महद् योगदानं विहितं वर्तते। भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः कथयति सर्वकारेण नूतन योजनानाम् अग्रेवर्धनस्य अपेक्षयापि प्राक्तन योजनानां सम्पादनं प्रति ध्यानं केन्द्रितं वर्तते। प्राक्तन योजनानां प्रदेय वित्तस्य समस्या मासाभ्यन्तरे समाधाय आश्विन मासात् पूर्वाधार निर्माणस्य कार्येण तीव्रता ग्रहिष्यते इति प्रतिबद्धतां व्यक्तवान्। प्रेस चौतारी नेपालस्य रूपन्देही शाखया ह्य भुटवल स्थाने आयोजिते पत्रकार सम्मेलने मन्त्री दाहालः शतदिनानाम् अभ्यन्तरे सिद्धबाबा भूमिगत मार्गस्य पारे नयनत्वेन कार्यं जायमानमस्तीति असूचयत्।